अथ चतुर्थः पादः प्रशाभ्याम् नोणः समानपदे अट्कुप्वाङ्नुम् व्यवायेऽपि पूर्वपदात् संज्ञायामगः वनम् पुरगा मिश्रका सिद्धका शारिका कोटराग्रेभ्यः प्रनिरन्तशरे क्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्यो संज्ञायामपि विभाषौषधिवनस्पतिभ्यः अह्नोदन्तात् वाहनमाहितात् पानम् देशे वाभावकर्णयोः प्रातिपदिकान्तनुम् विभक्तिषु च एकाजुत्तरपदेणः कुमति च उपसर्गादसमासेऽपिणोपदेशस्य हिनुमीना आनिलोट् नेर्गदनदपतपदघुमास्यति हन्ति याति वाति द्रातिप्साति वपति वहति शाम्यति चिनोति देग्धिषु च शेषे विभाषाकखादावशान्त उपदेशे अनितेः अन्तः उभौ साभ्यासस्य हन्तेरत्पूर्वस्य वमोर्वा अन्तरदेशे अयनञ्च छन्दश्रुतवग्रहात् नश्च धातुस्थोरुषुभ्यः उपसर्गाद्बहुलम् कृत्यचः नेर्विभाषा हलश्चेजुपधात् इजादेः सनुमः वा निंसनिक्षनिन्दाम् नभाभूपूकमिगमिप्यायी वेपाम् षात्पदान्तात् शेषान्तस्य पदान्तस्य पदव्यवाये क्षुभ्नादिषु च स्तोश्चुनाश्चुः ष्टुनाष्टुः न पदान्ताट्टोरनाम् तोषि शात् यरोऽनुनासिकेऽनुनासिको वा अचोरहाभ्याम् द्वे अनचि च नादिन्याक्रोशे पुत्रस्य शरोचि त्रिप्रभृतिषु शाकटायनस्य सर्वत्र शाकल्यस्य दीर्घादाचार्याणाम् झलाम् झष् झषि अभ्यासे चर्चा खरि च वावसाने अणोप्रगृह्यस्यानुनासिकः अनुस्वारस्य ययि परसवर्णः वापदान्तस्य तोर्लि उदस्थास्तम्भोः पूर्वस्य झयोहोऽन्यतरस्याम् षश्छोटि हलो यमाम् यमिलोपः झरो झरिसवर्णे उदात्तादनुदात्तस्य स्वरितः नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् अ अ इति चतुर्थः पादः इत्यष्टमोऽध्यायः।